एष रेडियो नेपालः सम्प्रति समाचारः श्रीयन्ताम् प्रवाचकः ध्रुव भट्टराई निर्वाचन आयोगेन अद्ययावत सम्पूर्णानां मतपत्राणां परिवहनं सम्पन्नं भवतीति ज्ञापितं वर्तते। आयोगेन गतदिने काष्ठमण्डपे आयोजिते नियमित संचार संक्षेप कार्यक्रमे आयोगस्य प्रवक्ता शालिग्राम शर्मा पौडेला अवदत् सर्वेषां मतपत्राणां मुद्रणं सम्पन्नं अद्य सायं यावत् परिवहनस्य कार्यमपि सम्पद्यते। प्रवक्ता पौडेला मधेस प्रदेशस्य जनपदान् विहाय अन्येषां जनपदानां मतपत्राणां परिवहनं समाप्तम् प्रदेशस्य जनपदानां कृतेऽपि अद्यैव गन्तव्येषु प्रापणत्वेन परिवहनस्य व्यवस्था विहिता स्थिति अज्ञापयत्। निर्वाचन आयोगेन वैशाखस्य त्रिंशे दिवसे सम्पत्स्यमाना स्थानीयस्तराणां निर्वाचनाय नियुक्तान् मतदानाधिकृतान् अन्यान् कर्मचारिणश्च अत्यावश्यकं मानवीयं संवेदनशीलं च कारणं विना न परिवर्तयितुं मुख्य निर्वाचनाधिकृता निर्वाचनाधिकृताश्च निर्दिष्टाः सन्ति। आयोगेन मतदान कार्याय नियुक्ता सम्पूर्ण कर्मचारिण आत्मनाम कार्यस्थलं विलम्बेन विना गन्तुं निर्धारितं दायित्वं पूरयितुं च आदिष्टा सन्तीति ज्ञापन प्रवक्ता पौडेलः विशेष कारणस्य अवस्थां विहाय कार्य सम्पादनम् अस्वीकुर्वत कर्मचारिण प्रचलित विध्यानुसारेण कठोरेण दण्डयितुमपि निर्दिष्टम् अस्तीति अवदत्। एवमेव आयोगेन अधुनावधि निर्वाचनाचार संहिताय उल्लंघन कारिणीभ्य सप्तत्रिंशतो व्यक्तिभ्य राजनीतिक दलेभ्य च स्पष्टीकरणं पृष्टम्। प्राप्तस्य स्पष्टीकरणस्य विषये आयोगेन अध्ययनं विधेयमानं चास्तीति प्रवक्ता पौडेलः अवदत्। निर्वाचन आयोगेन वैशाखस्य त्रिंशे दिवसे सम्पत्स्यमानस्य स्थानीयस्तराणां निर्वाचनस्य दिवसस्य अष्टचत्वारिंशतो घण्टानां पूर्वकालतः मतदान कार्यस्य असम्पन्नतां यावत् सर्वै अन्तर्राष्ट्रिय सीमा प्रवेश बिन्दुभि विधीयमानस्य गमनागमनस्य पिधानाय नेपाल सर्वकाराय पत्रं प्रेषयितुं निर्णीतं वर्तते। आयोगस्य गतदिने उपविष्टेन उपवेशन व्यवस्थापनस्य कार्यम् अतिरिक्ते स्वच्छे स्वतन्त्रे निष्पक्षे सुरक्षिते भयरहिते च वातावरणे सम्पादयितुं वैशाखस्य सप्तविंश दिवसस्य मंगलवासरस्य रात्रौ द्वादशवादनतः अन्तर्राष्ट्रिय सीमा प्रवेशबिन्दुभि विधीयमानस्य गमनागमनस्य मतदानस्य दिने आन्तररूपेण सञ्चाल्यमानानां सर्वविधानां यातायात साधनानां च पिधानाय गृहमन्त्रालयं पत्रं प्रेषयितुं निर्णीतमिति आयोगस्य प्रवक्ता शालिग्राम शर्मा पौडेलः अज्ञापयत्। एवमेव वैशाखस्य सप्तविंश दिवसस्य रात्रौ द्वादशवादनात् मतदान कार्यस्य असम्पन्नतां यावत् निर्धारित क्षेत्रे मादक पदार्थानां विक्रय वितरण सेवनानां कठोरेण निषेधनाय च गृहमन्त्रालयं पत्रं प्रेषयितुमपि आयोगेन निर्णीतमिति प्रवक्ता पौडेलः अबोधयत्। नेपाली कांग्रेस दलस्य सभापति प्रधानमन्त्री च शेरबहादुर देउवा वदति गठबन्धनं त्रोटयितुं षड्यन्त्रं विधीयमानमस्ति। पञ्चदलीय गठबन्धनेन ह्य चितवन जनपदे आयोजितां जनसभां सम्बोधयन् प्रधानमन्त्री देउवा गठबन्धनं त्रोटयितुं षड्यन्त्रं विधीयमानमस्तीति कारणं प्रदर्श्य तत्र सचेष्टताय कार्यकर्तृन् अनुरणत। जनसभायां नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड अवदत् भरतपुरे पञ्चदलीय गठबन्धने अस्वीकृते सति देश दुर्घटनाम् अवाप्स्यति। अध्यक्ष प्रचण्ड विकास समृद्धि कृते गठबन्धनम् आवश्यकम् अस्तीति तर्कयन् निरन्तरताय प्रतिबद्धतां व्यक्तवान्। नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपालः अवदत् गठबन्धनस्य भविष्यं सुनिश्चेतव्यम्। अध्यक्ष नेपालः दलानां एकतया राजसंस्था विस्थापितेति चर्चयन् संविधान गणतन्त्रै रक्षायै पञ्चदलीयं गठबन्धनम् आवश्यकम् अस्तीति अभाषत। असौ दक्षिणपन्थी गठबन्धनं परित्यज्य लोकतान्त्रिक गठबन्धनं सहयुक्तं कार्यकर्तन् अनुरुणत। जनसभायां नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेलः संसदीय निर्वाचनं यावत् गठबन्धनं भविष्यतीति न्यस्यत्। गठबन्धनस्य कारणेनैव संघ प्रदेशे सर्वकार निर्मित इति भासमान असौ गठबन्धनस्य माध्यमेन एव जननेतु बीपी कोइराला विदेश स्वप्न सफलताम् अवाप्स्यतीति अतर्कयत। कार्यक्रमे जनता समाजवादी दलस्य नेता राजेन्द्र श्रेष्ठ अगदत् संघीयता विरोधी भ्रम प्रसार्यमाण स्थिति हेतु संघीयताय रक्षाय पञ्चदलीयं गठबन्धनम् आवश्यकं वर्तते। जनसभायां कांग्रेस दलस्य सहमहामन्त्री डीना उपाध्याय पञ्चदलीय गठबन्धनस्य दलै निष्ठा कार्यं कर्तव्यमित्यत्र बलम् अदत्। नेपाली कांग्रेस दलेन स्थानीय स्थानीय निर्वाचने विद्रोहिन प्रत्याशिन दलात स्वत निष्कासित सन्तीति ज्ञापितम वर्तते। दलस्य आधिकारिक प्रत्याशिनाम विरूद्धे पंजीकृत मनोनयनानाम प्रत्याशिनाम तेषाम समर्थकानाम प्रस्तावकानाम च दल सदस्यता नेपाली कांग्रेस दलस्य विधानसानुसारेण निरस्तीकृतेति दलस्य मुख्य सचिव कृष्ण प्रसाद पौडेल अज्ञापयत। एवमेव विद्रोहिणाम प्रत्याशिनाम तेषाम समर्थकानाम प्रस्तावकानाम च विवरणस्य प्रतिलिपिम तत्कालं केन्द्रम प्रेषयितुं दलस्य जनपद समितिः अनुरुद्धा सन्तीति मुख्य सचिवेन पौडेलेन प्रकाशितां विज्ञप्तौ उल्लिखितमस्ति। गृहमन्त्री बालकृष्ण खाँड अशैव वैशाख सत्रिंशे दिवसे सम्पत्स्यमाने स्थानीय स्तर निर्वाचने सहभागितायी सम्पूर्ण जनान अनुरोधे सप्तरी जनपदस्य राजविराज स्थानीय आयोजितायीं सुरक्षा गोष्ठ्यां मन्त्री खाँड साधारण नागरिकानां राजनीतिक दलानां च निर्वाचने सहभागितायी स्थानीय प्रशासनस्य सुरक्षा निकायस्य च ध्यानम् आकर्षयत। मन्त्री खाँड स्थानीय स्तराणां निर्वाचनं शान्तिपूर्णं स्वच्छ निष्पक्षं च कारयितुं सर्वकारस्य प्रतिबद्धतां व्यक्तवान्। गोष्ठ्यां सहभागी पदाधिकारी निर्वाचनस्य पूर्व कार्यस्य सुव्यवस्थितिर्विषय ज्ञापितम् आसीत्। नेपाली कांग्रेस दलस्य महामन्त्री विश्व प्रकाश शर्मा तर्कयति राष्ट्रसहिताय संविधानस्य रक्षाय च पञ्चदलीय गठबन्धनम् संघटितम् वर्तते। असौ कस्मादपि दलात् विभीय गठबन्धनस्य दलानां मध्ये समन्वय न विहित इति समस्पष्टयत्। नेपाली कांग्रेस दलस्य नेकपा माओवादी केन्द्रस्य च संयुक्त गठबन्धनेन नवलपरासी बर्दघाट सुस्ता पश्चिम जनपदस्य सुनवल स्थानीय आयोजितायम् जनसभायम् महामन्त्री शर्मा समाजस्य हितम् स्मृत्वा स्थानीय निर्वाचने मतदान कर्तुम अनुरुणत। सभाएं माओवादी केन्द्र नेता लुम्बिनी प्रदेश योजना आयोग उपाध्यक्ष वामदेव क्षेत्री अवदत स्थानीय सर्वकार से अनुभूत गठबंधन निर्मित अस्ति। प्रधान सेनापतिना प्रभुराम शर्मणा स्थानीय स्तरनाम निर्वाचनस्य सुरक्षायै रूपन्देही जनपदस्य मजगाम स्थाने तनहुँ जनपदस्य रिसिङ स्थाने च स्थापितम् सैन्य कार्य शिविरस्थलम् यो निरीक्षितम्। जनपद स्थिते सुरक्षा निकायस्य प्रमुखे निर्वाचनाधिकृतस्य सह सुरक्षा व्यवस्थाय निर्वाचनस्य पूर्व कार्यस्य च विषये प्रधान सेनापतिना विमृष्टमिति सैनिक जनसम्पर्क सूचना निर्देशनालयेन ज्ञापितम् वर्तते। प्रधान सेनापति शर्मा नेपाल सर्वकारात् प्राप्तम् दायित्वम् उत्कृष्टतया सम्पादयितुम् निर्देशत। सर्वोच्च न्यायालय प्रहरी महानिरीक्षकस्य पदोन्नतिर्विरोधिन आदेश विहाचन निवेदनस्य प्रारम्भिक श्रवणे अन्तरिमादेश प्रदानम् अस्वीकृतम् वर्तते। न्यायाधीशस्य सुषमा लता माथेमा विधाय एकल न्यायपीठेन एतस्मिन् विवादे ह्य अन्तरिमादेश प्रदानम् अस्वीकृतमस्ति। न्यायालये एतस्य विवादस्य अन्तिम श्रवणम् आगामिनो ज्येष्ठमासस्य सप्तदशे दिवसे भाविता। आदेशे निर्धारित दिने एव अन्तिम श्रवणम् विधास्यते। दिनांक सारयितुम् न शक्यते चेति उल्लिखितमस्ति। अवधे अभ्यन्तरे पक्षद्वय नैव लिखितोत्तरं प्रस्तोतव्यमिति च आदिष्टम् वर्तते। उपराष्ट्रपति नन्दबहादुर पुन वदति देशस्य आर्थिक विकासेन सहितस्य समृद्धये राज्यस्य निकाय पारदर्शिन जनतां प्रति उत्तरदायिनस्य विधातव्य। राष्ट्रिय सूचना आयोगस्य पञ्चदश स्थापना दिवसस्य अवसरे ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे उपराष्ट्रपति पुन अकथयत् सूचना अधिकारस्य प्रभावकारी कार्यान्वयनेन एव राज्य जनतो हितं भवति इति समाचारः।